हवामहे कविं कवीनामुपवश्यवस्तवम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिनेवते धीरामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु दण्वने बाहुभ्यामुतते नमः यात इषः शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवत या नो रुद्रमृणया याते रुद्रशिवा तनुरघोरापापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिचाकशेः यामिषम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्रताङ्गुरुमाहि गुंसि पुरुषम् जगत शिवे डवचसा त्वा गिरिशार्क्षा वदामसि यथा नः सर्वविज्जगदयक्ष्मगुंसुमदा असत अध्यवोचदधिवक्ता प्रथमो दैव्याभिषक अहेकश्च सर्वा जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्र अरुण उत बभ्रस्व मङ्गलः ये क्षेमागुम् रुद्रा अभिता भिक्षुश्रुताः सहस्रशो वैशोगुम् हेड एमहे असव्यो वसर्पतिरग्रीवो विलोहितः उदैनम् गोपा अधृषन्न धृषन्नुदहार्यः उदैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मेढुषे अथो ये अस्य सत्त्वानो हन्तेभ्यो करण्णवः प्रमुञ्च धन्वनस्त्वमुभयोरार्निजोर्जा यास्य ते हस्त इष भक्तराता भगवो वपा अवतत्य धनुस्त्वगुम् सहस्राक्षशते शुधे निशेर्य शल्यानाम् मुखा शिवोन सुमना भव विज्जम् धनुः गभर्दिनो विशल्यो बाणवागुम् उता अनेषण्णस्य शव आभुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नातताय धृष्टवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्विणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदा शिवाय ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯಬಾಹವೇ ಸೇನಾಂಗೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸಸ್ಮಿನ್ ಚ ರಾಜತ್ವಿಷೇಮತೇ ಪಥೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಬಭ್ರುಷಾಯ ವಿವ್ಯಾಧಿನೇನ್ನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭವಸ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರುದ್ರಾಯ ತಥಾ ವಿನೇ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರೋಹಿತಾಯ ಸ್ಥಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಮಂತ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭುವಂತಯೇ ವಾರಿವಸ್ಕೃತಾಯೌಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೇ ಬತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಕೃತ್ಸ್ನವೀತಾಯ ಧಾವತೇ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ ನಮಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಕಕುಭಾಯ ನಿಷಂಗಿಣೇ ಸ್ತೇನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಷಂಗಿಣ ಇಷು ಧಿಮತೇ ತಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ವಂಚತೆ ಪರಿವಂಚತೆ ಸ್ತಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಚೇರಪೇ ಪರಿಚರಾಯಾರಣ್ಯಾಣಾಂ ಪತಯೇ ನಮೋ ನಮ ಶ್ರಿಕಾವಿಭ್ಯೋ ಜಿಘಾಗುಂ ಸದ್ಭ್ಯೋಮುಷ್ಣತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಶ್ರೀಮದ್ಭ್ಯೋ ನ ತಂ ಚರದ್ಭ್ಯ ಪ್ರಕೃಂತಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಜ ಕುಲುಂಚಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಇಷು ಮದ್ಭ್ಯೋ ಧಂಭಾವಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಆತನ್ಬಾನೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಆಯಚ್ಛದ್ಭ್ಯೋ ವೃಷಜದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋಶ್ಚಭ್ಯೋ ವಿದ್ಯದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಆಸೇನೇಭ್ಯ ಶಯಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಸ್ತಿಷ್ಠದ್ಭ್ಯೋ ಧಾವದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಸಭಾಭ್ಯಶ್ ಸಭಾಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮಃ ನಮ ಆವ್ಯಾಧಿನೀಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಉಗಣಾಭ್ಯಸ್ತ್ರಗುಂಹತೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ ಘೃತ್ಸೇಭ್ಯೋ ಘೃತ್ಸಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ ಪ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ ಗಣೇಭ್ಯೋ ಗಣಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ ಮಹದ್ಭ್ಯಃ ಶುಲ್ಲಕೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ ರಥಿಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಸೇನಾಭ್ಯಸೇನಾಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ ಶತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೀತೃಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಸ್ತಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಕುಲಾಲೇಭ್ಯ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಪುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಇಷುಕೃದ್ಭ್ಯೋ ದಂಭಕೃದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯಶ್ವಣಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ ಶ್ವಭ್ಯಶ್ವಪದಿಭ್ಯಶ್ಚ ವೋ ನಮಃ. ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಶರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೆ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿಭಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀಷುಷ್ಟಮಾಯ ಚೇಷುಮದೆ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹದೇ ಚ ವರ್ಷೇಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧ್ವನೆ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಆಶವೇ ಚಾಜಿರಾಯ ಚ ನಮಃ ಶೀಘ್ರಿಯಾಯ ಚ ಶೇಭ್ಯಾಯ ಚ ನಮಃ ಊರ್ಮ್ಯಾಯ ಚ ವಸ್ವನ್ಯಾಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಯ ಚ ತ್ವೇಭ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಘನ್ಯಾಯ ಚ ಬುಧ್ನಿಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸರ್ಜಾಯ ಚ ನಮೋ ಜಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಉರ್ವರ್ಯಾಯ ಚ ಖಲ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚ ವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮಃ ಆಶುಷೇಣಾಯ ಚಾಶುರಥಾಯ ಚ ನಮಃ ಶೂರಾಯ ಚ ವಭಿಂದತೆ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೂಥಿಣೇ ಚ ನಮೋ ಬಿಲ್ಮಿಣೇ ಚ ಕವಚಿಣೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಹನಂಜಾಯ ಚ ನಮೋ ಧೃಷ್ಣವೇ ಚ ಪ್ರಭೃಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷು ಧಿಮತೆ ಚ ನಮಃ ತೀಕ್ಷ್ಣೇ ಚ ವೇ ಚ ಜುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಜುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಶ್ರುತ್ಯಾಯ ಚ ಪಥ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ ಸೋತ್ಯಾಯ ಚ ಸರಸ್ಯಾಯ ಚ ನಮೋ ನಾಧ್ಯಾಯ ಚ ವೈಷಂತಾಯ ಚ ನಮಃ ಕೋಪ್ಯಾಯ ಚ ವಟ್ಯಾಯ ಚ ನಮೋ ವರ್ಷಾಯ ಚ ವರ್ಷಾಯ ಚ ನಮೋ ಮೇಘ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮಃ ಈದ್ರಿಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮೆಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ತಾಮ್ರಾಯ ಚ ಋಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮಃ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇ ವಧಾಯ ಚ ದೂರೇ ವಧಾಯ ಚ ನಮೋ ಹಂತ್ರೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಯ ನಮಃ ಶಂಭವೇ ಚ ಮಯೋಭವೇ ಚ ನಮಃ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮಃ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮಃ ತೀರ್ಥಾಯ ಚ ಕೋಲ್ಯಾಯ ಚ ನಮಃ ಕಾರ್ಯಾಯ ಚ ಭಾರ್ಯಾಯ ಚ ನಮಃ ಪ್ರತರಣಾಯ ಚೋತ್ತರಣಾಯ ಚ ನಮಃ ಆತಾರ್ಯಾಯ ಚ ಲಾಧ್ಯಾಯ ಚ ನಮಃ ಷಷ್ಪ್ಯಾಯ ಚ ಫೇನ್ಯಾಯ ಚ ನಮಃ ಸಿಕತ್ಯಾಯ ಚ ಪ್ರವಾಹ್ಯಾಯ ಚ ನಮಃ ಇಹಿಣ್ಯಾಯ ಚ ಪ್ರಪಥ್ಯಾಯ ಚ ನಮಃ ಕಿಗುಂಶಿಲಾಯ ಚ ಕ್ಷಯನಾಯ ಚ ನಮಃ ಕಬರ್ದಿನೇ ಚ ಪುನಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಟ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮಃ ಕಲ್ಪ್ಯಾಯ ಚ ಗೇಹ್ಯಾಯ ಚ ನಮ ಕಾಟ್ಯಾಯ ಚ ಗವ್ವರೇಷ್ಠಾಯ ಚ ನಮೋ ಹೃದಯ್ಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮ ಪಾಗುಂಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲಪ್ಯಾಯ ಚ ನಮ ಊರ್ವ್ಯಾಯ ಚ ಸೂರ್ಮ್ಯಾಯ ಚ ನಮ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶದ್ಯಾಯ ಚ ನಮೋಪಗುರಮಾಣಾಯ ಚಾಭಿಗ್ನತೆ ಚ ನಮ ಆಖಿದತೆ ಚ ಪ್ರಖಿದತೆ ಚ ನಮೋ ಭಕ್ತಿರಿಗೇಭ್ಯೋ ದೇವಾನೋಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೆಭ್ಯೋ ನಮ ಆಮೇವತ್ಕೇಭ್ಯಃ ದ್ರಾಪೇ ಅಂಧಸಸ್ಪದೇ ದರಿದ್ರಣ್ಣೀಳಲೋಹಿತ ಏಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾ ರೋಮೋ ಏಷಾಂ ಕಿಂಚನ ಮಮತ ಯಾತೆ ರುದ್ರಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಹ ಭೇಷಜೇ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೇ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಇವಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ಜಿನೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯಥಾ ದಶವಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ವೃಡಾನೋ ರುದ್ರೋತನೋಮಯಸ್ಕೃತಿ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮದೇ ಯಚ್ಛನ್ ಚಯೋಶ್ಚ ಮನುರಾಯ ಜೇ ಪಿತಾ ತದಶ್ಯಾಮತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತಮುತಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತಮುತಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋದ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುಪೋ ರುದ್ರರೀರ್ಷಃ ಮಾನಸ್ತೋಕೇತನ ಹೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರ್ಷಃ ವೀರಾಣ್ಮಾನೋ ರುದ್ರಭಾವಿತೋಪಧಿ ಅವಿಶ್ವಂತೋ ನಮಸಾ ವಿಧೇಮತೆ ಆರಾಟ್ಯೇ ಗೋಘ್ನ ಉತ ಪುರುಷಗ್ನೆ ಕ್ಷಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೆ ಅಸ್ತು ರಕ್ಷಾಚನೋ ಅಧಿಜ ದೇವ ಬ್ರೂಹ್ಯಧಾಚನ ಶೈರ್ಮಯಚ್ಚ ದ್ವಿವರ್ಹಾಃ ಸುಹಿಶ್ರುತಂ ಗರ್ಥ ಸದೈಯುಪಾನಂ ಮೃಗಣ್ಣ ಭೀಮಮುಪಹತ್ನು ಮುಗ್ರಂ ಮೃಡಾಚರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೆ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾಃ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತೆ ವೃಣಕ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಕಾಯೋ ಅವಸ್ಥಿರಾ ಭಗವದ್ಭ್ಯಸ್ತನುಷ್ವಮೀಡ್ವಸ್ತೋಕಾಯತನಯಾಯ ಮೃಡಯಾ ಮೀಡುಷ್ಟಮ ಶಿವತಮ ಶಿವೋ ನತ್ಸುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ತಿಂ ವಸಾನ ಆಚರ ಪಿಣಾಕಂ ಬಿಭ್ರದಾಗಹಿ ವಿಕಿರಿಣ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಕುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವಪಂತು ತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಧಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವಃ ಪರಾಚೀನಾ ಮುಖಾಗೃಹಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರಾಧಿಭೂಮ್ಯಾ ತೇಷಾಕುಂ ಸಹಸ್ರಯೋಜನೆ ವಧನ್ವಾನಿ ತನ್ಮಸಿ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂತರಿಕ್ಷೇ ಭವಾ ಅಧಿ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ಶೈವಾ ಅಧಃ ಕ್ಷಮಾಚರಾಃ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ದಿವಗುಂ ರುದ್ರಾ ಉಪಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ಸಸ್ಪಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾ ಸಕ್ಕವರ್ದಿನಃ యే అన్నేషు వివిధ్యంతి పాత్రేషు వివతో జనాన యే పథాం పథి రక్షయ ఐరభృదాయ వ్యుధః యే తీర్థాని ప్రచరంతి శ్రీకావంతోని శంగిణః య ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయో జనే బధన్వాని తన్వసే నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివి యే శోమన్నం వాతో వర్షమిషభస్తేభ్యో దశ ప్రాచీ దశ దక్షిణా దశ ప్రతి చీర్దశో దేచీర్దశో ద్వాస్తేభ్యో నమస్తే నో మృడజంతు తేజం ద్విష్మో యశ్చ నో ద్వేష్టితం భోజం భేదధామి త్రంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షిజవామృతాత్ యో రుద్రో అగ్నవ్యో అప్సుయ ఓషధీషు యో రుద్రో విశ్వో భువనా వివేశ తస్మై రుద్ర యనమో అస్తు ఏతే సహస్రమయుధం పాశా మృత్యోర్మర్త్యాయ హంతవే యజ్ఞస్య మాయయా సర్వానమయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్నేనాప్యాయ స్వా నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తమష్టు హియస్విషు సుదన్వాజో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశో మనసాయ రుద్రం నమో భిర్దేవమసురందువస్య అయం మే హస్తో భగవానయం మే భగవత్తరః అయం మే విశ్వభే సజోయగుం శివాభిమర్షణః ఓం శాంతి శాంతి శాంతిః ఓం అగ్నా విష్ణు సజోషసేమా వర్ధంతు వాంగిరః యుమ్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రతిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే అపానశ్చ మే వ్యానశ్చ మే శుశ్చ మే చిత్తం చ మాధీతం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మోజశ్చ మే సహశ్చ మాయుశ్చ మే జరా చ మాత్మా చ మే తనూశ్చ మే శర్మ చ మే వర్మ చ మేంగాణి చ మే స్థాని చ మే పరోగుంషి చ మే శరీరాణి చ మే జ్యేష్ఠం చ ఆధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మే మశ్చ మేంభశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రథిమా చ మే భస్మా చ మేంద్రాహుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే ద్విషశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జనిష్యమాణం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యచ్చ మే సుగం చ మే సుపథం చ వరుద్ధం చ వరుద్ధిశ్చ మే క్లుప్తం చ మే క్లుప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే मयश्च मे प्रियं च मेनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञातं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे
सुगिनं च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे शब्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मेऽन्नं च मे क्षुश्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे वीरुजश्च म ओषधयश्च मे कृष्णपच्यं च मे कृष्णपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां विद्वितरं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मेदाभ्यश्च मेधिपतिश्च म उपागुंशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे भन्ते च म आग्रहणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे तिग्राख्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतेयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीभतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधभनीयश्च म आग्नेध्रम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे बभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे अर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्योश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रसन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवार्च मे दित्यौ हे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौ हे च मे पष्ठवाच्च मे पष्ठौ हे च म उक्षा च मे वशा च म ऋषभश्च मे वेहश्च मे नग्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपारो यज्ञेन कल्पताम् ध्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे अष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्नेयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडादेर्बहुर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता वदानि सगुं शिषद्विश्वे देवासूक्तवा च पृथिवीमा धर्मा वाहिगुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्ति। हरिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावः ताम् मावः जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वानृतमध्याम् हस्तिना प्रबोधिनीम् श्रियम् देवीमुपग्मये श्रीमा देवे जुषताम् काम् सोऽस्मिताम् हिरण्यप्राकारमार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाय यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् ऋणे आदित्यवर्णे तपसोदि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायास्त बाह्या अलक्ष्मीः उपैतु माम् देवसखः कीर्तिश्च मणिला सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे क्षुत्तिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वानिर्नुन मे गृहात् गन्धद्वाराङ्गुरादर्शाम् नित्यपुष्टाम् करीषिणी ईश्वरी गुम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमशीमहीम् पशूनाम् रूपमन्यस्य महिश्रेश्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपसृजन्तु स्निग्धानि चिक्लेतव स मे गृहे निच देवी मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावः आर्द्राण्यक्करिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावः ताम् मावः जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् यश्रुचि प्रयतो भूत्वा जुहुयादा जमन्वहम् श्रियम् पञ्चदशतम् च श्रीकामः सततम् जपेत् पद्मानने पद्मऊरु पद्माक्षी पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदायि गोदायि धनदायि महाधने धनम् मे जुषताम् देवे सर्वकामाश्च देहि मे पुत्रपौत्रधनम् धान्यम् हस्त्यश्वादिगवेरथम् प्रजानाम् भवति माता आयुष्मन्तम् करोतु माम् धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैनते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो न शुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसूक्तम् जपेत् सदा वर्षन्तु ते विभावरी दिवो अभ्रस्य विद्युदः रोहन्तु सर्वबीजान्यवब्रह्मद्विषो जहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् मयि सन्निधस्वा व्यासा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिस्तरभरनमिता शुभ्रवस्तोत्तरीया लक्ष्मी दिव्यै गजेन्द्रैर्मणिघनकथितैः स्नापिता हेमकुम्भैः नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीम् क्षीरसमुद्रराजतनया श्रीरङ्गधामेश्वरीम् दासीभूत समस्तदेव वनिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्र गङ्गाधरा त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्द प्रिया सिद्धलक्ष्मी मोक्षलक्ष्मी जयलक्ष्मी सरस्वती श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशौपाशमभीतिमुद्राम् करैर्वहन्तीम् कमलासनस्थाम् बालार्ककोटिप्रतिभाम् त्रिनेत्राम् भजेऽहमम्बाम् जगदीश्वरीम् द्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवी नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ
शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम्हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना प्रातर्भगम् पूषणम् ब्रह्मणस्पतिम् प्रातः सोमबुधरुद्रगुम्भुमेव प्रातर्जितम् भगमुग्रगुम्भुवेम वयम् पुत्रमरिधेर्यो विधत्ता आद्रश्चिद्यम् मन्यमानस्थुरश्चिद्राचाचिद्यम् भगम् भक्ष्येत्याः भगप्रणेतर्भगसत्यराधो भगे माम् धियमुदवदन्नः भगप्रणोजनजगोभिरश्वैर्भगप्रणुभिर्हृवन्तः स्याम उते दानीम् भगवन्तः स्यामोद प्रभित्व उत मध्ये अह्ना उतोदिता मघवन्सोऽस्य वयम् देवानागुम् सुमतौ स्याम भग एव भगवागुमस्तु देवास्तेन वयम् भगवन्तः स्याम तन्त्वा भग सर्व इज्जो हवेमिषनो भगपुर एता भवेह समद्वरा योषसो नमन्तदधिक्रामे वसुषये पदाय अर्वाचीनम् वसुविदम् भगन्नो रथमिवाश्वा वाजिन आवहन्तो अश्वावतीर्गोमतीर्न उषासो वीरवती सदमुच्छन्तु भद्राः घृतम् दुहाना विश्वदम् प्रपीणा यूयम् पाद स्वस्तिभिः सदा नः यो माग्ने भागिनगुम् सन्त्यमता भागम् चिकीरुषते अभागमग्ने तम् कुरु मामग्ने भागिनम् कुरु अधिराजाय प्रसंयसाहिने न नमो भजम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् ज्ञानेन मार्गेण महीमहिषाः को ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति।